जसरी हामीलाई नेट कनेक्टिङ गर्न वाईफाई वा डाटा चाहिन्छ, त्यसरी नै कोरियन भाषा जान्न वा कनेक्टिङ हुन कनेक्टिङ ओल एजुकेशन चाहिन्छ। आउनुहोस् अन्नपूर्ण सुपर मार्केटको दोस्रो तला महेन्द्र पुलमा, कोरियन भाषा सिक्नुहोस् अनि कोरिया जानुहोस्।
대화 2.
아디 씨, 여기 웬일이에요?
여기 이슬람 사원에 기도하러 왔어요.
오늘은 금요일이 아닌데 오늘도 예배를 드려요?
예배는 없는데 아버지가 좀 편찮으셔서 시간이 있을 때마다 와서 기도해요.
아버지가 빨리 좋아지셨으면 좋겠네요. 저도 기도할게요.